हनुमान स्तोत्रम।
बुद्धिर्बलम् यशो धैर्यम् निर्भयत्वम् मरोगता अजाड्यम् वाक्पटुत्वम् च हनुमत् स्मरणात् भवेत्।
When we pray to Bhagavan Hanuman, we will be blessed with intellect, strength, fame, courage, fearlessness, freedom from all ailments, wisdom and diplomacy of speech.
Buddhirbalam yasho dhairyam
Buddhirbalam yasho dhairyam
Nirbhayatvam arogata
Nirbhayatvam arogata
Buddhirbalam yasho dhairyam
Buddhirbalam yasho dhairyam
यशो धैर्यम्
यशो धैर्यम्
निर्भयत्वम्
निर्भयत्वम्
अरोगता
अरोगता
अजाड्यम्
अजाड्यम्
वाक्पटुत्वम् च
वाक्पटुत्वम् च
वाक्पटुत्वम् च
वाक्पटुत्वम् च
हनुमत् स्मरणाद् भवेत्
हनुमत् स्मरणाद् भवेत्।